नित्यानन्दरूपम् अवधूतरूपम् गुरुस्वरूपम् आत्मस्वरूपम् अखण्डरूपम् आधाररूपम् आनन्दरूपम् शरणं प्रपद्ये नित्यानन्दरूपम् नित्यस्वरूपम् निजानन्दरूपम् निजस्वरूपम् निराकाररूपम् निर्गुणस्वरूपम् चिदानन्दरूपम् शरणं प्रपद्ये।